సర్వేభ్యం నమస్కారాలు. సిద్ధాంత కౌముద్యా వలంత నపుంసకలింగ ప్రకరణే పంచమ పాఠ నవంబర్ మాసస్య దశమ దినాంక. ఏనాక్షరసమం న్యాయం అధిగమ్య మహేశ్వరాత్ కృత్స్నం వ్యాకరణం ప్రోక్తం తస్మై పాణినయే నమః. వాక్యకారం వరుణిం భాష్యకారం పతంజలిం పాణినిం సూత్రకారం చ ప్రణతోస్మి మునిత్రయం. మునిత్రయం నమస్కృత్య తదుక్తీః పరిభావ్య చ వైయాకరణ సిద్ధాంత కౌముదీయం విరచ్యతే. హలంతేషు నపుంసకలింగేషు చకారాంతాః నపుంసకలింగాః అధీయంతే. తత్రాదౌ కశ్చన శ్లోకః పఠితః. ఇట్ ఇస్ ఇన్ ద ఫామ్ ఆఫ్ ఎ రిడిల్ విచ్ ఇస్ పోస్డ్ బై ఎ స్కాలర్. సో హి సేస్ జాయంతే నవ సౌ తథామి చ నవ భ్యాం భిస్ భిసాం సంగమే షట్ సంఖ్యాని నవైవ సుతి అథ జసి త్రీణ్యేవ తద్వత్ శతి చత్వారి అన్యవచస్సు కస్య విబుధాః శబ్దస్య రూపాణి తత్ జానంతు ప్రతిభాస్తి చేన్ నిగదితుం షాణ్మాసికః అత్ర అవధిః. ఏ విబుధాః కస్య శబ్దస్య రూపాణి, కీదృశాని రూపాణి సౌ అమి సుపి చ నవ రూపాణి భ్యాం భిస్ భిస్సు షట్ రూపాణి జసి త్రీ శసి త్రీణి రూపాణి అన్యాసు విభక్తిషు చత్వారి రూపాణి. ఏతావంతి రూపాణి కస్య రూపాణి, కస్య శబ్దస్య ప్రతిభా అస్తి చేత్ జానంతు షాణ్మాసికః వదతి. తస్య ఉత్తర రూపేణ దీక్షితాః అపి శ్లోక రూపేణ ఇవ లిఖంతి మూలే గవాక్ శబ్దస్య రూపాణి జీవే అర్చా గతిభేదతః అసంధమం పూర్వరూపైః నవాధికశతం మతం స్వం సుక్సు నవ షడ్భాదౌ షట్కే స్యుః త్రీణి దశసోః చత్వారి శేషే దశకే రూపాణి ఇతి విభావయ. అయితే గవాచ్ శబ్దస్య రూపాణి, గవాచ్ ఇది చకారాంతం ప్రాతిపదికం, తస్య రూపాణి జీవే నపుంసకలింగే అర్చా గతిభేదతః. గవాచ్ శబ్ద గా మంచతి ఇది అంచు గతి పూజనయోః ఇది ధాతోః నిష్కర్ణః. గత్యర్థకః పూజార్థకః అంచుధాతుః. తత్ర భేదః అస్తి నాంచేః పూజాయాం ఇతి నిషేధస్య కారణేన గత్యర్థకస్య అంచుధాతోః రూపేషు పూజార్థకస్య చ భేదః భవతి. అదః క్రీవే అర్చా గతిభేదతః. అర్చా నామ పూజా, పూజార్థకస్య తథైవ గత్యర్థకస్య భేదేన అసంధి అమం పూర్వరూపైః. పునశ్చ గోశబ్దః అస్తి గవాచిత్యత్ర. గోశబ్దస్య విశేషః అస్తి సర్వత్ర విభాషా గోః ఇత్యనేన అసంధిః నామ ప్రకృతిభావః విహితః. అవంగ్ అవంగ్ స్ఫోటాయనస్య ఇత్యనేన అవంగాదేశః విహితః. పూర్వరూప ఉభయోః అభావే పూర్వరూపం తు భవత్యేవ. అతః అసంధి అవంగ్ పూర్వరూపైః నవాధిక శతం మతం. ఆహత్య కతి రూపాణి నవాధిక శతం. 109 forms are derived for the single word gavach from the 21 pratyayas. The usual number of forms should be 21. So it is more than 5 times that because of the different karya. One is the difference between the puja and gati. And the other is the difference between the karya. There is prakriti bhava, there is avangadesha, and there is purva rupa. So it is three options. So navadhika shatam rupani. Su, am, suk, su, nava. 9 forms each in su, am, and suk. Shad, bhadav, shatke. So in the 6 pratyayas we begin with bha. It is bhyam, bhis, bhyam, bhis, bhyam, bhis. In those 6, there are 6 forms each. Trini jasya soho. Jasi trini rupani, shasi trini rupani, satvari sheshe dashake. In the remaining 10, pratyayas. So we have dealt with 6 plus 3, 9 plus 2, 11 pratyayas. So among, in and followed by the remaining 10 pratyayas, chatvari rupani. There will be 4 forms each, it is vibhavaya. So how exactly do we derive these forms? Let's see. Hahi. Kam anchati iti vigraha. So you have go shabda as upapada and anchu bhatu. Ratvik, gatvik, srat, dik, ushnik, anchu. This is the answer, etc. Anchu bhatu ho. Pariganam asti, etc. Kvin pratyaha kriyate. Gatau nalopaha. Gatyarthakasya anchu bhatu ho. अनिदिताम हल उपधायाः किमिति इति सूत्रेण नकारस्य लोपः क्रियते. सो दिस इज द सूत्र. धातुः इदित् न भवति तस्य उपधायाः हलः लोपः भवति किमित्यादौ प्रत्यये. सो यू हैव कित् प्रत्यय और नित् प्रत्यय. यू हैव क्विन व्हिच इज कित्. सो व्हेन फॉलोड बाय क्विन द उपधा Hal here is actually nakara, anja, etc. Nakara bhavati, tasya lopaha. So you have go, you had go and anja. Let us keep the home separate for now. So anja, etc. upadhayaha, nakara se lope krate, go, achi, iti bhavati, kvin pratyasya, sarvapahari lopaha. Vakarasya api, kakara, ikara, nakara yohu, itsanyaya nivrattihi. Vakarasya, vera pratyasya, ityanena nivrattihi. So you have go, achi as the pratiparika. Aunskotayanasya, sandhi prakarane, adhitam sutram. Go shabdasya, achi pare, avamadeshakasya, iti skotayanasya acharyasya mate. So tena among adeshaha bhavati chetu. Gava achi, go itrithi, okarasya sthane avangadeshaha, avang nitvad antadeshaha, okarasya sthane avangitvate, gava achi, kavarna dhirthe kvate, gavach bhavati, kvin pratyayam tattvat, kittvam bhavati, gavach itrithra, prasitaha atra, chotkuhu itdeva kittvam karani, prasitthattvam. Pin pratyasya kuhu iti asithatvate, chok kuhu iti neityeva kutvam bhavati. So this is the error. We actually apply chok kuhu. So the chakara is converted to sakara. And you have dhalam jashonte, followed by vavasane. So you have gavak and gavam. There are two forms. This is in case of gatyarthaka anchidhatu. So when you do avang, avangaha pakshe rupadvayam. Now this avang is optional. Sarvatra vibhasha gohu iti prakriti bhava. Go shabdasya asipare vikalpena prakritya bhavati. So in all cases there is an optional prakriti bhava. So there is no sandhi. Sandhi na bhavati chete, go achi atyaya bhavati, punaha tatsarvam samani. Kim chokuhu iti kutvam bhavati, dhanam vishunte vavasane, go ak, go adu, iti rupadvayam. And then, when neither of these appear, and there is no prakriti bhava, and there is no avangadesha, both of them are optional. Prakriti bhava ha vikalpena bhavati, amangadesha ha api vikalpika ha. So, ubhayoho abhave, go atyatiste, enus padanta vati, iti sutrena, purvarupam ha. So, padanta rena ha, ati pare, purvarupam ekadesha ha syaa. Iti uktatva ha, purvarupe krate, gok, gog, iti rupatvayam. So, there are six forms. Amangadeshe rupadvayam, prakritibhave rupadvayam, purvarupe rupadvayam. Vaha gatyarthakasya shad rupani bhavanti supratyaye pare. Pujayam,
Now we take Anshu Pujaya. So Puja Kakasya Anshidhatohu Ram Anshati Deva Vigraha. Manche Pujaya is Nishedhata Nalopaha Nabhakti. Anijitam Khala Upadhaya Kineti. It is Sutrasya Nishedhaha Nanche Pujaya. Puja Kakasya Anshidhatohu Upadhaya Halaha Lopaha Nabhavati. Tena lopasya abhave go anji itteva pratipadika. So go anji iti pratipadikat sukartayaha soho so napunsakat ittenena luk bhavati. Go anji ittasya sakarasya sanyogantasya lopaha ittenena lopaha. Padante sanyogaha sanyogantam yat padam tadantasya lopaha sya. Go anji, it is today, sakarasya lopaha bhavati. This is not makarasya sanyogantha lopaha, so it should be sakarasya sanyogantha lopaha. So go an, it is the sakaraha sanyogantha lopaha, it is the lopaha. Matsya kutle rangaha, go an, it is the. You always remember that the dhatu originally had makara, it is anji dhatu. Because of the Katara, there is Anuswara and Parasavarna, we have the Savarga Panchamakshara here. So actually, it is Nakara. So as soon as you remove Chakara, you get back the Nakara. Nakaraha eva bhavati. Go an, it is kite. Nasya putre na gaha. Nakaraha ni, jin prasya si kuhu, it's gane na, sasya kutvam priyate. Nakara si kutvam, it is kite, Savargasya Panchamakshara ha. Anunasitaha, nakaraha, go angu, bhavati. Tiranim punaha, avangadeshaha. Avangadeshe krate, gavang, iti rupam. Prakriti bhave krate, go angu, iti rupam. Purva rupe krate, gong, iti rupam. So we have three forms here. Gavang, go angu, and gong. Six forms in Gatyarthaka and three forms in Pujarthaka. So we have a total of nine forms in Supratyaya. Supratyaya Navarupani Sadhitani. Ami api etanyeva nava. So whether it is Su or Am in Napumsakalinga, there is no difference. Ubhayatra Svamo Napumsakad ittinena लुक भवति अतः अमी अति एतान्येव नवरूपाणि भवन्ति औः शी गोच औ इत्यस्ति नपुंसकार्थ इत्यनेन औ प्रत्ययस्य स्थाने शी इति आदेशः भत्वाद् अजः इति अल्लोपः इदानीं सर्वनामस्थानसंज्ञा नास्ति नपुंसकः नपुंसकलिंगे शि सर्वनामस्थानम् यस्तसोः शिः भवति तस्यैव सर्वनामस्थानसंज्ञा औ प्रत्ययस्य सर्वनामस्थानसंज्ञा नास्ति चेत् यचिभम् इति सूत्रेण अजादिषु प्रत्ययेषु कप्रत्ययावलिषु यकारादिषु अजादिषु पूर्वं भसंज्ञं स्यात् इत्यनेन भ इति संज्ञा भवति Vasamyayam satyam asaha iti sutrena allopaha. Luktanakarasya anchatehe akarasya lopahasyat vasamyayam. Ataha gati gatyarthake nakarasya lopekrate go ach e iti sate akarasya lopaha. Akarasya lopekrate go ach e iti sate go chi iti rupam siddham. Ekameva rupam. Since there is no akara, there is no option for either Prakriti Bhava or Avanga. Right? So, there is no Sandhi at all. There is no place for a Sandhi. So, there is a single form in Gatyarthaka Prathamavibhakti Dvivachana Gochi. Pujayam so. On the other hand, if it is Pujarthaka, there is no Allopa. Because Achaha says, Luktanakarasya Anshatehe. When nakara has been deleted, then only we can apply ataha. Since there is no nalopa in puja, thaka and siddhatu, there is no allopa also. You have go, anch, e, avangadeshe krute, gavanchi, prakritibhave krute, go, anchi, pura rupe krute, go, anchi. Iti, rupatrayam. There are three forms in pujartha and one form in gatyartha. So together there are four forms. The same will hold true wherever there is bhatamya, which is ajadi pratyaya, where you have ta, nye, nati. Everywhere there are four forms. Gatyartha ke allopena ekam dopam, pujartha katve avangadesha prakriti bhava pura rupaihi rupatrayam. So there will be four forms. That is the four which is referred to in the dashaka. There are 10 pratyayas, ajadi pratyayas. In all of them there is bhasamya. And in each of them there are four forms like this. So that itself is 4 × 10, 40 forms for the word. And you have 9 × 2 = 18 in su and am. Agre jashatohu shihi. Dasahasthane cha shi adeshaha bhavati. Sheh sarvanamasthanatvat num. So since she gets sarvanamasthara samya, we should do numagama. Kena sutrena numagamaha iti kashtana prashnaha asti. Balamanavaramayam tu iratam sarvanamasthane adhatohu. Ittinena numagamaha yudiyade. Ugid acham anchidhatohu sarvanamasthane pare numagamaha bhavati iti sutramasti. Vastutah tu go acheti dhalam tattvat napumsakasya dhalatah ittinena api numagamasya praptihe asti. So should think of which sutra should we apply here. Napumsakasya dhalatah is actually the parasutra. And actually I think napumsakasya dhalatah should be applied here, but I will clarify this point later. Because the Vyakhyana specifically mentions Ugidacham Saranamasthane. So pratipadoktatvat idam sutram asyasutrasya pravatihi bhavativa. Paratvat napumsakasya dhalatah itiva drashtavyam jashtra suchayami. So anyway, there is numagama in gatyarthaka. So the gatyarthaka dhatu, we had deleted the nakara by aniditam halaupadhaya kineti. Hiraniyam tu numagamaha bhavati. Go anchi istyavasti e avadeshe krite gavanchi go anchi gonchi iti rupatrayam. Pujarthakatve ati nakarasya lopaha eva nasti. There is no deletion of nakara. So you still have go anch. So the forms will be the same. Gavanchi, go anchi, gonchi. Gati pujanayohu trineva. Whether you take gatyarthaka or pujarthaka, it will be the same three forms. There is no difference between gatyarthaka and pujarthaka. In pujarthaka there is no nalopa. And in gatyarthaka there is numagama, so it will finally the form will be the same. Three forms each in jas and shas. So su au jas am au shas. I finished it. 9, 4, and 3 forms each. Agre tritiya ekavachane ta prateye punaha chatvari rupani. Gocha gatyarthakasya ekameva rupam. Ataha iti allopena ekam rupam. Gocha pujarthakasya tu trini rupani. Gavancha, go ancha, goncha. Ahatya chatvari rupani. Bhyam prateye. So you have gavach bhyam in case of gatyarthaka. तत्र अमगादेशे कृते गवाग्भ्याम् अचे इत्यत्र चोक्पुः इत्यनेन कृतं भवति झलां दशोऽन्ते इत्यनेन जस्त्वे कृते गवाग्भ्याम् प्रकृतिभावे गो अग्भ्याम् पूर्वरूपे गोभ्याम् इति रूपत्रयम् रक्तर्थके पुनः पूजार्थके गवाञ्च भ्याम् इत्यस्ति चकारस्य संयोगान्तस्य लोपः इत्यनेन लोपः गवान् भ्याम् अस्ति किञ्चित्तेऽस्ति कुः इत्यनेन नकारस्य कुत्वे नकारः कवर्गपञ्चमाक्षरः आदेशः गो अङ् भ्याम् अस्ति अमङादेशे कृते गवाङ्भ्याम् प्रकृतिभावे गो अङ्भ्याम् पूर्वरूपे कृते गोङ्भ्याम् इति रूपत्रयम् नत्यर्थकस्यापि रूपत्रयम् पूजार्थकस्यापि रूपत्रयम् आहत्य षड् रूपाणि सो देयर आर सिक्स फॉर्म्स इन भ्याम द सेम प्रक्रिया विल बी इन भिस् भ्यस् सो इन दो सिक्स भ्याम भिस् भ्याम भ्यस् भ्याम भ्यस् चतुर्थी तृतीया चतुर्थी पंचमी द्विवचने बहुवचने च षड् रूपाणि सिक्स इंटू सिक्स हैव 36 forms. The last form left is sup. So you have ta bhyam bhis nye pratyaya punaha chatvari rupani bhyam bhisoh shad rupani nasi pratyaya chatvari rupani bhyam bhisoh shad rupani nas os am ni os पञ्च अपि विभक्तयः अजादयः अजादित्वात् गत्यर्थके अल्लोपः पूजार्थके अवं प्रकृतिभाव पूर्वरूपाणि सो फोर फॉर्म्स ईच द फाइनल प्रत्यय इज सु सो हैव गो अच सु सुपि तु नान्तानां पक्षे नोमुक्तुक्षरि इति कुक् गत्यर्थके तु गवाक्षु गो अक्षु गोक्षु इति रूपत्रयम् भवति नान्तानाम् पूजार्थके चकारस्य संयोगान्तलोपे नकारस्य क्विन् प्रत्ययस्य कुः इत्यनेन कुत्वे कृते गो अङ् सु इत्यस्ति णोः कुक्तुक्षरि इति कुक् नकारस्य णकारस्य च शरिपरे उगागमः भवति सुगागमश्च भवति नकारस्य कुक् इति आगमः इति उच्यते अङ् सु इति स्थ्यते सुगागमे कृते अङ् कृ सु इति भवति तदा अङ्क्षु कृ सु इत्यस्ति कुगागमे कृते आदेशप्रत्ययोः इत्यनेन सत्त्वं भवति गवाङ्क्षु गो अङ्क्षु गोङ्क्षु इति रूपत्रयम् कुगागमपक्षे कुगागमः विकल्पेन भवति तस्य अभावे गवांशु गो अंशु गोंशु इति रूपत्रयम् आहत्य षड् रूपाणि पूजार्थकस्य सो इन् पूजार्थ इट्सेल्फ वी हैव सिक्स फॉर्म्स बिकॉज ऑफ कुगागम विकल्प गत्यर्थके तु रूपत्रयम् गवाक्षु गो अक्षु गोक्षु देयर इज नो नकार हियर सो देयर इज नो चांस फॉर कुगागम So, together there are 9 forms resulting in sup. So, that is what he started with. Nava, su, am, sup, su. So, in these cases, there are 9 forms. In Bhyam, those 6, there are 6 forms each. Jas and Chas have 3 each. And the remaining have 4 each. So he has told those. Nachaiha chayodvitiyaha chari iti pakshe kakarasya khakarena shanna adhikyam shankyam sartasya asiddhatvat. Noho chayodvitiyaha chari poshkarasadehe iti vachyam iti sutravasti. चयः पदान्ते ये चै वर्णाः
तेषां शरीपरे द्वितीय आदेशः अर्थात् वर्गस्य द्वितीयवर्णः आदेशः भवति इति वार्तिकम् अधीतम्. वी ऑलरेडी स्टडीड दिस इन संधि. व्हेन वी डिड नो पुत्तुक्षरि वी इमीडिएटली सॉ दिस. सो नाउ अत्र ककारस्य खकारः आदेशः भवति वा इति प्रश्नः. किं जातं गो अच् सु इत्यस्य गत्यर्थके अच् इत्यस्य चोकुः इत्यनेन कुत्वं कृतम् गो अक् सु इति धलां जशोऽन्त इत्यनेन चत्वे कृते खरिच इत्यनेन धलां जशोऽन्त इत्यनेन जष्ट्वे कृते खरिच इत्यनेन पुनः चत्वं कृतम्. सो यः गो अक् सु अत्र इदानीं चयोद्वितीयाः इत्यनेन ककारस्य स्थाने खकारादेशः भवति वा इति प्रश्ने न भवति इति उच्यते षट्वस्य असिद्धत्वात्. द वार्तिक चयोद्वितीयाश्चरि हस् बीन् टोल्ड् इन् द सूत्र नादिन्याक्रोशे पुत्रस्य. सो सिन्स् वार्तिक इट् इस् अ वार्तिक चयोद्वितीयाश्चरि पौष्करसादेर् इति वक्तव्यम् इति वार्तिकमस्ति. वार्तिकस्य संख्या न भवति. So it does not have a sankhya like sutra sankhya. I mean, so we take for the purposes of purva paratva, we take the sutra in which the vartika has been told. Idam vartikam chayodvitiya shari iti vartikam tu nadinya kroshe putrasya iti sutra patitam. Idam sutram ashtamadhyayasya chaturthapadasya ashtachatvarimshattamam sutram. Kharicha iti sutram tu पञ्चपञ्चाशत्तमम्. खरिच इस् 55, दिस् इस् 48. चत्वस्य असिद्धत्वात् सिन्स् चत्व इस् असिद्ध अकार्डिङ्ग् टु दिस् वार्तिक दर् इस् गकार दर् तृतीयाक्षरः एव अस्ति न तु प्रथमाक्षरम्. अतः द्वितीयादेशः न भवति इति उच्यते. सो बिकास् आफ् दिस् दर् इस् नो द्वितीयादेश इन् गवाक्षु गोवक्षु और् गोक्षु. Kukpakshetu, but actually in case of Kugagama, we are not using chatva, right? We are directly adding a kakara. Go, ang, su, it is thite, sakshat Kugagamaha bhavati. Noh kuktukshari. Kugagamaha, srutiya pade asti ittitaha, jastva api na bhavati. Once you do kuk, there is no jastva, so the kakara remains as kakara. Tadanim tu, chayodvitiya shari ittanena, द्वितीयादेशः भवितुम् अर्हति. कुक्पक्षे तु तस्य असिद्धत्वात् जस्त्वाभावे तस्य कुगागमस्य असिद्धत्वात् जस्त्वसूत्रम् सलाम् जशोऽन्ते इति अष्टमाध्यायस्य द्वितीयपादे अस्ति. इदं तु तृतीयपादे. अतः कुगागमस्य असिद्धत्वात् जस्त्वम् न भवति. सो यु हाव् ककार डैरेक्ट्ली. पक्षे चयः द्वितीयादेशात्. अत्र तु चयोद्वितीयाश्चरि इत्यनेन खकारादेशः गवाङ्क्षु गो अङ्क्षु गोङ्क्षु इत्यतः खकारादेशः भवति. चयोद्वितीयादेशात् त्रीणि रूपाणि वर्धन्त एव. सो वाट् ही सेड् वास् देर् इस् नो अडिशन् आफ् सिक्स् फार्म्स्. गत्यर्थके द्वितीयादेशः न भवति चत्वस्य असिद्धत्वात्. कुक्पक्षे तु द्वितीयादेशात् त्रीणि रूपाणि वर्धन्त एव. देर् ईस् एन् अडिशन् आफ् त्री फार्म्स्. So what has already been told. So actually there should be 12 forms in sup instead of 9. Evam cha navadhika shatam iti sutrakara matam. Since chayodvitiyaha is a vartika, if you do not consider the vartika, sutrakarasya mate navadhika shatam rupani. There are 109 forms. Vartika kara mate to dvadashadhika shatam. So if you consider the vartika, there are 112 forms. For Gavach. Okay. If you look at a quick recap, you have Supratyaye Navarupani, Am Ityatra Nava, Supi. So either you have 9 or 12, depending on it. So you have Jas and Shas, you have 3 each. In Dhyam Bhis, Dhyam Bhis, Dhyam Bhis. In these 6, you have 6 forms each. The rest, you have 4. So if you sum it up, you end up with 109 or 112. if you consider the Vaptika, there are 112 forms for the words. So, Dikshita does not stop there. So, he gives two more lines. Uhyamesham dvirvachana anunasika vikalpanat rupani ashvakshibhutani bhavantiti manishibhihi. So, he goes a step ahead of the person who posed the riddle. He says, dvirvachana anunasika vikalpanat. There is dvitva vikalpa. I have in Gavach, etc. You can do anachicha etanena dvitvam kartam shakyate. Anunasika asti. There is an anunasika in the final. We did it in dadhi and dadhi. It is the last sutra in the Prakriti Bhava Prakarana. So, if, but I don't know if that is possible here. Okay. So, because of the vikalpa, rupani ashvakshi bhutani. So, ashvakshi, he gives it as 527 forms are possible for the form. So, if you want, still I'm not going into details of the 527 forms. Balamanoramakara gives the details, so if you want you can read it up for curiosity. These are just theoretical possibilities, since they will not be used practically. But you can just look up of interest of how those forms are derived. If there is any difficulty, if you don't understand something, you can always ask. But for now, it is Ashvakshi Bhutani. That is one interesting usage he makes here. Ashva, many of our Shastri Granthas, numbers are not referred to directly by numbers. They use some particles to indicate the numbers. For example, if say Ashva generally refers to 7 because of its association with Surya. Sapta Saptihi, it is Surya's nama. His chariot is supposed to have 7 horses. So the word Ashva is generally used to represent the number 7. Akshi is eyes. Since eyes are always 2, Akshi represents 2. Bhuta, Pancha Bhutani. Iti Bhuta Shabdasya, Pancha Ityarthaha. So numbers are generally represented by some particles which have the same numbers. So it is Ashvakshi Bhutani. So Ashva, Akshi and Bhuta, which is 7, 2, 5. And always there is this rule with regard to numbers. Ankanam Vamatogatihi. You always read the numbers from the left, which makes sense even today because we always put the first number in the units place. That is how we go even in modern mathematics. So 7, 2, 5, we have 527 forms for the word Gavas. Uhyam Esham. Esham Namadhika Shatarupanam Athava Dvadashadhika Shatanam Dvirvachana Anunasika Vikalpanath Rupani Ashvakshi Bhutani Bhavanti Iti Manishibhihi Uhyam Iti Ikshitaihi Diyate. Any questions? अग्रे तकारान्ताः नपुंसकलिङ्गाः तकारान्तः नपुंसकलिङ्गः यकृत् शब्दः यकृत् यकृती यकृन्ति सुप्रत्यये प्रत्ययस्य लुक् औ औङः षि यसः षिः नुमागमः अनुस्वारपरसवर्णौ यः यकृन्ति यकृत् यकृती यकृन्ति पुनः यकृत् यकृती यकृन्ति पद्दन् इति वा यकन् पद्दन् ओमा सन् निशसन् यूषन् दोषन् यकन् शकन् इति दीयते शत्प्रभृतिषु यकृत् शब्दस्य यकन् इति आदेशः भवति शकृत् शब्दस्य शकन् इति आदेशः इति दीयते अतः पद्दन् ओमास इत्यनेन विकल्पेन यकन् इति आदेशः शस् प्रत्ययादारभ्य यकन् आदेशे कृते यकन् इ इत्यस्ति सर्वनामस्थाने च सम्बुद्धौ इत्यनेन उपधादीर्घे कृते यकानि इति रूपम् यकृन्ति इति एकम् यकानि इति अपरम् यक्ना यकृता तृतीया टा कृते यकृत् आ इत्युक्ते यकृता यकन् आदेशे कृते यकन् आ भवति अल्लोपो नः इत्यनेन अकारस्य लोपे यक्ना इति रूपम् पुनः यकभ्याम् यकृद्भ्याम् इत्यादि रूपद्वयम् भवति सर्वासु विभक्तिषु वेरि सिमिलर्ली वि हाव् द वर्ड् शकृत् तकारान्तः नपुंसकलिङ्गः शकृत् शब्दः शकृत् शकृती शकृन्ति जस्प्रत्यये एकमेव रूपम् शकृन्ति इति शस्प्रत्यये तु रूपद्वयम् शकृन्ति शकानि शक्ना शकृता शकभ्याम् शकृद्भ्याम् शकभिः शकृद्भिः इत्यादीनि रूपाणि ततः तकारान्तः नपुंसकलिङ्गः ददत् शब्दः सो द वर्ड् ददत् इस् डिरैव्ड् फ्रम् दुदाय् दाने शत्रु सब्जेक्ट् शत्रु सो दाधातोः लट् लकारः क्रियते वर्तमाने लट् इत्यनेन लटः स्थाने लटशब्दशानुसा प्रथमासमानाधिकरणे इत्यनेन शत्रु आदेशः दा अत् शत इत्यत्र शकारस्य दशक्वदध्यते इति संज्ञा ऋकारस्य उपदेशे अधनुनासिक इत्यनेन इत्संज्ञा उभयोः लोपः अत् इति शिष्यते दा अत् इत्यस्ति कर्तरि शप् इत्यनेन शवा शप् प्रत्ययः क्रियते दा अ अत् जुहोत्यादिभ्यः दा धातुः जुहोत्यादिगणे अस्ति अतः जुहोत्यादिभ्यः श्लुः इत्यनेन शपः लोपः श्लु इति लोपस्यैव संज्ञा प्रत्ययस्य लुक् श्लु लुपः श्लु इति लोपः प्रत्ययः लुप्यते श्लुना लुप्ते श्लौ इत्यनेन द्वित्वं भवति प्रकृतेः द्वित्वे दा दा अत् अस्ति अभ्यासस्य ह्रस्वः इत्यनेन अभ्यासस्य ह्रस्वे कृते ददा अत् आकारस्य स्नाब्धस्ययोरातः इत्यनेन लोपे दद् अत् ददत् इति तकारान्तम् प्रातिपदिकम् सो दिस् प्रत्यय यु शुड् आल्वेस् नोट् टु नो वाट् इस् द अङ्ग बिफोर् शत्रु सो हि हियर् दद् इस् अङ्ग एण्ड् अत् नौ वेनेवर् यु हेव् दर् इस् द्वित्वा दर् इस् अ सूत्र काल्ड् उभयभ्यस्तम् पूर्वोभ्यासः एण्ड् उभे अभ्यस्तम् The first part of it, Purvakhanda, is called Abhyasa. Ubhe, whereas the two together, that is Da, Da, together is called Abhyasta. Okay? Ubhe Abhyastam with the Sutram. Agre, Tinganta Prakarne Adhiyate. Just remember that this is called Abhyasta. Now we have dadat. Prathamika vachane dadat ityeva rupam. Supratyasya luk bhavati. Aungaha shi dadati ityeva rupam. Jas pratyayetu dadat jas. Jashaso shihi ityeva shi adeshaha dadat I. Ranim astutaha नुमागमक करणीय नपुंसक छलस इन नुमागमे प्राप्ते अभ्यस्तात् शतुः इति सूत्रमस्ति अभ्यस्तात् परस्य शतुः अंगस्य नुमागमः न भवति स्टडी द सूत्र अर्लियर इन पुल्लिंग इटसेल्फ सो सिंस दिस इज कॉल्ड अभ्यस्त एज आई टोल्ड वेयर देयर इज द्वित्वा फॉर द धातु द बोथ पार्ट्स टुगेदर इट इज कॉल्ड अभ्यस्त सो अभ्यस्तात् शतुः नुमागमः न भवति इति उक्तत्वात् अत्र नुम् निषेधः प्राप्नोति नुम् निषेधे प्राप्ते पुनः सूत्रमस्ति वा नपुंसकस्य इति पदद्वयम् इतो नुम् धातोः इत्यतः नुम् इति अनुवर्तते उदिरतां सर्वनामस्थाने धातोः इत्यतः सर्वनामस्थाने इति अभ्यस्तात् शतुः इत्यतः अभ्यस्तात् शतुः इति अनुवर्तते कः अर्थः अभ्यस्तात् परः यः शता शता नाम शतृ प्रत्ययः यथा पितृ इत्यस्य प्रथमैकवचने पिता इति भवति तथा शतृ इत्यस्य प्रथमैकवचने शता अतः अभ्यस्तात् परः यः शता तदन्तस्य क्लीबस्य नु वा स्यात् सर्वनामस्थाने इन नपुंसकलिंग देयर इज अ वैकल्पिक नुमागम सो यू हैव ददन्ति नुमागमे कृते ददन्ति इति रूपम तदभावे ददति इत्येव रूपम यू हैव ददन्ति ददति सिमिलरली इन द्वितीय यू हैव ददत् ददति ददन्ति ददति अग्रे तु ददता ददद्भ्यां ददद्भिः इत्यादि पुल्लिङ्गवद् रूपाणि There's one more takaranta, which he takes up now. Takarantah, napumsakalingah, tudat shabdah. It is the same. This is also a shatra pratyayanta. Tudat vyathane vibhatoh. Kintu, atra, abhyastatvam nasti. There is no abhyastat. There is no dhritva. Tud belongs to the sixth gana. Tudadihi इत्येव गणस्य नाम सो देर इज शत्रु लट् लटः शत्रु सुदानिभ्यः इत्यनेन श विकरणः सो हैव तुद् अ अत् अतो गुणे इत्यनेन पररूपे कृते तुदत् इति प्रातिपदिकम् इदानीं तुदत् औ इति स्थिते औङः षि आदेशः क्रियते तुदत् इ अत्र तु सर्वनामस्थानत्वं नास्ति इत्यतः नुमागमस्य प्राप्तिः एव नास्ति असर्वनामस्थानत्वात् नुमि अप्राप्ते देयर इज नो सर्वनामस्थान देयर इज नो ऑप्शन फॉर डूइंग नुम हियर So since there is no num, I mean there is no option for num. Yes. Hello. Oh yeah. Sorry. Yeah, there is a pause. Yeah, yeah. No problem. There is a sutra being told specifically for numagama. Achhi nadyoho num. That is sutram. At shi nadyoho num. Iti parachyedha. नाभ्यस्ताच्छतुः इत्यतः शतुः इति अनुवर्तते वा नपुंसकस्य इत्यतः वा इत्यपि अनुवर्तते आत् नाम अवर्णान्तात् अङ्गात् परः यः शतुः अवयवः तदन्तस्य अङ्गस्य नु वा स्यात् शीनद्योः परतः सो वेन् फालोड् बै शी और रदि स्त्री प्रत्यय सो यू हैव शी हियर शी श्याम परतः विकल्पेन रुमागमः भवति चतुः अवयवस्य अवर्णान्तात् अंगात् परस्य सो इफ यू गो बैक टू द डेरिवेशन ऑफ सुदत यू सी दैट द अंग हियर फॉर शत्रु इज यू हैव टू द श विकरणम योजयित्वा अकारान्तम् अंगमस्ति पररूपे कृते अपि यू हैव अंतादिवच्च सो यू हैव अवर्णान्त अंग अवर्णान्तादङ्गात् परः शतुः अवयवः नाम तकारः तस्य नुमागमः भवति शतुः अवयवः तदन्तस्य अङ्गस्य नु वा स्यात् शीनद्योः परतः सो देर् इस् एन् आप्शनल् नुमागम इन् औ प्रत्यय फार् तुदत् सो यु हाव् तुदन्ती तुदती टू फार्म्स् इन् औ नपुंसके तु नित्यमेव नुमागमः भवति नपुंसकस्य झलसः इत्यनेन श्रुतम् जस् प्रत्यये नित्यं नुमागमः नपुंसकस्य झलसः इति सूत्रेण तुदन्ति सिन्स् देर् इस् नो अभ्यस्त नाभ्यस्तात् चतुः इति निषेधः न भवति नित्यं नुमागमः तुदन्ति टु फार्म्स् इन् औ एण्ड् अ सिङ्गल् फार्म् इन् जस् इन् केस् आफ् ददत् वन् फार्म् इन् औ एण्ड् टु फार्म्स् इन् जस् हियर् द विकल्प इस् इन् औ So one more example of the same type. There is bhāt shabda. Bhādīptau iti dhātuhu. You have the same latlakāra and shatra. You have shap. Bhādhātu belongs to the second gana, which is adādi. So you have adipravṛtibhya shapaha. Ittanena shap pratyasya lopaha bhavati. So you have bhā, ati. And savarna dirghe krite bhat. In this case, there is an avarnanta anga in the dhatu itself. Though the shap has been deleted, since the dhatu itself ends in avarnanta anga, here also you have a numagama vikalpa in au. Shyam parataha atrapi numagamaha vikalpena bhavati. Bhat, bhati, bhanti iti rupadvayam. Jasitu nityameva numagamaha bhanti rupam. So these two are similar, sudat and bhat. There is one more kind, takarantaha napumsaka lingaha pachat shabdaha. Pachadhatohu shatrukrutyayantaha. Here you have kartari shap. Since pachadhatu belongs to the first gana, bhadiganyaha, shapaha lopaha nasti. पच अत् इति कृते अतो गुणे इत्यनेन पररूपते पचत् इत्येव रूपम् नौ वेन् यु हाव् पचत् अण्ड् औ यु डु शी आच्छीनद्योर्नुम् इति विकल्पेन नुमि प्राप्ते सो अकार्डिङ्ग् टु आच्छीनद्योर्नुम् देर् इस् अवर्णान्त अङ्ग फालोड् बै शी सो वि शुड् एक्चुलि डु नुमागम आप्शनलि यूसिङ्ग् आच्छीनद्योर्नुम् But there is one more sutra, Shapshyanor Nityam. Okay. So, Shapshyanoho. So, if there is Shap or Shyan, Nityam Numagamaha Bhavati. So, Nabhyastha Chatuhu Ityataha Chatuhu Ity Anuvartate, Achinadyohu Numu Ity Purnam Anuvartate. शप्श्यनोः आत्परः यः शतुः अवयवः सो यत् अवर्ण बिलोङ्ग्स् टु शप् और् श्यन् तदन्तस्य नित्यं नुमागमः स्यात् शीनद्योः परतः सो सच् अ फार्म् विल् गेट् कम्पल्सरी नुमागम इन् केस् आफ् वेन् फालोड् बै शी सो फार् पचत् दट् इस् अ सिङ्गल् फार्म् दट् इस् पचन्ति पचत् पचन्ती जस्प्रतये परे अपि नुमागमः नित्यः नपुंसकस्य धरतः इति सूत्रेण सो यु हाव् पचन्ति देर् इस् अ सिङ्गल् फार्म् इन् ईच् सो देर् आर् त्री केसेस् पासिबल् इफ् इट् इस् अ तृतीयगण इफ् देर् इस् अभ्यस्त तदा सर्वनामस्थाने परे विकल्पेन नुमागमः भवति वा नपुंसकस्य इति सूत्रेण यदि अकारान्तमङ्गम् तर्हि श्याम विकल्पेन अनुमागमः भवति अच्छिनद्योर्नुम् इति सूत्रेण. यदि शप् श्यन् विकरणः भवति तदा तु नित्यम् अनुमागमः भवति श्याम अपि. सो दिस् देर् आर् त्री केसेस् यु सा. वन् इस् ददत्, द सेकेण्ड् टैप् इस् सुदत् एण्ड् हात्, द थर्ड् टैप् इस् पचत् एण्ड् दीव्यत्. पचत् इस् एन् एक्साम्पल् फार् शप् एण्ड् फार् श्यन् वि हेव् दीव्यत्. अकारान्तः नपुंसकलिङ्गः दीव्यत् शब्दः दिवधातोः लट् क्रियते, लटः शत्र् क्रियते, ततः तस्य अयं चतुर्थगणीयः धातुः. दिस् इस् नाट् कर्तरि शप् दिवादिभ्य श्यन् शुड् बि द सूत्र टैपिङ्ग् एरर्. सो दिवादिभ्य श्यन् इत्यनेन श्यन् विकरणः क्रियते. सो यु हेव् दिव् य अत् हलिच इत्यनेन उपधायाः दीर्घः क्रियते. सो यु हेव् दीव्य अत् अतो गुणे कृते दीव्यत् इति प्रातिपदिकम्. अस्यापि नित्यं नुमागमः भवति शप्शनोर्नित्यम् इति सूत्रेण. सो यु हेव् दीव्यत् दीव्यन्ती दीव्यन्ति. Okay, that is the end of Pakaranta Napumsakalinga. From the next, this is Pakaranta. We have a small bit left in Halanta Napumsakalinga. We will see that tomorrow. Any questions? येनाक्षरस्वाम्नायम् अधिगम्य महेश्वर सुप्तिं व्याकरणं प्रोक्तं तस्मै पाणये नमः. मिलित्रयं नमस्कृत्य ददुक्तीश्वरि भाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते.